ओम नमो भगवते वासुदेवाय। अथ सप्तचत्वारिंशोऽध्यायः। श्रीशुक उवाच। तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम् पीताम्बरं पुष्करमालिनं लसन्मुखारविन्दं मणिमृष्टकुण्डलम् शुचिस्मिताः कोऽयमपीच्य दर्शनः कुतश्च कस्याच्युत वेषभूषणः। इति स्म सर्वाः परिववृरुत्सुकास्तमुत्तमश्लोकपदाम्बुजाश्रयम् तम् प्रश्रयेणावनतासु सत्कृतम् सव्रीडहासे क्षणसूनृतादिभिः रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरम् रमापतेः। जानीमस्त्वाम् यदुपतेः पार्षदम् समुपागतम् भर्त्रेः प्रेषितः पित्रोर्भवान् प्रियचिकीर्षया। अन्यथा गोव्रजे तस्य स्मरणीयम् न चक्ष्महे। स्नेहानुबन्धो बन्धूनाम् मुनेरपि सुदुस्त्यजः। अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् पुंभिस्त्रीषु कृता यद्वत् सुमनस्विव षट्पदैः। निःस्वम् त्यजन्ति गणिका अकल्पम् नृपतिम् प्रजाः। अधीतविद्या आचार्य मृत्विजो दत्त दक्षिणम् खगावीतफलम् वृक्षम् भुक्त्वा चातिथयो गृहम् दग्धम् मृगास्तथारणीयम् जारो भुक्त्वा रताम् स्त्रियम्। इति गोप्यो हि गोविन्दे गतवाक् कायमानसाः। कृष्णदूते व्रजम् याते उद्धवे त्यक्तलौकिकाः। गायन्त्यः प्रियकर्माणि रुदत्यश्च गतर्यः। तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः काचिन्मधुकरम् दृष्ट्वा ध्यायन्ति कृष्णसङ्गमम्। प्रियप्रस्थापितम् दूतम् कल्पयित्वेदमब्रवीत्। गोप्युवाच। मधुपकितव बन्धो मास्पृशाङ्घ्रिम् सपत्न्याः कुचविलुलितमाला कुङ्कुमस्मश्रुभिर्नः। वहतु मधुपतिस्तन्मानिनीनाम् प्रसादम् यदु सदसि विडम्ब्यम् यस्य दूतस्त्वमीदृक्। सकृदधरसुधाम् स्वाम् मोहिनीम् पाययित्वा सुमनसैव सद्यस्तत्यजेऽस्मान् भवादृक्। परिचरति कथम् तत्पादपद्मम् तु पद्मा यपि बत हितचेता उत्तमश्लोकजल्पैः। किमिह बहु सडङ्घ्रे गायसि त्वम् यदूनामधिपतिमगृहाणामग्रतो नः पुराणम्। विजयसखसखीनाम् गीयताम् तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः। दिवि भुवि चरसायाम् का स्त्रियस्तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य या स्युः। शरणरज उपास्ते यस्य भूतिर्वयङ्का अपि च कृपणपक्षे योत्तमश्लोकशब्दः। विसृज शिरसि पादम् वेद्म्यहम् चाटुकारैरनुनय विदुषस्तेभ्यस्य दौत्यैर्मुकुन्दात्। स्वकृतैः विसृष्टा पत्यपत्यन्यलोका व्यसृजद कृतचेता किम् नु सन्धेयमस्मिन्। मृगयुरिव कपीन्द्रम् विव्यधे लुब्धधर्मा स्त्रियमकृतविरूपाम् स्त्रीजितः कामयानाम्। बलिमपि बलिमत्वा वेष्टयध्वांशवद्यस्तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः। यदनुचरितलीला कर्णपीयूषविप्रुट् सकृदनविधूतद्वन्द्वधर्मा विनष्टाः। सपदि गृहकुटुम्बम् दीनमुत्सृज्य दीना बहव इह विहङ्गा भिक्षुचर्याम् चरन्ति। वयमृतमिव जिह्मव्याहृतम् शद्दधाना कुलिकरुतमिवाज्ञाः कृष्णवद्धो हरिण्यः। ददृशुरसकृदे तत्तन्नखस्पर्शतीव्र स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता। प्रियसख पुनरागा प्रेयसा प्रेषितः किम् वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग। नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वम् सततमुरसि सौम्य श्रीर्वधू साकमास्ते। अपि बत मधुपुर्या मार्यपुत्रोऽधुनास्ते स्मरति स पितृगेहान् सौम्य बन्धूंश्च गोपान्। क्वचिदपि स कथा न किङ्करीणाम् गृणीते भुजमगुरु सुगन्धम् मूर्ध्न्यधास्यत्कदा नु। श्रीशुक उवाच। अथोद्धवो निशम्यैवम् कृष्णदर्शनलालसाः सान्त्वयन् प्रियसन्देशैर्गोपीरिदमभाषत। उद्धव उवाच, अहो यूयम् स्म पूर्णार्था भवत्यो लोकपूजिताः, वासुदेवे भगवति यासामित्यर्पितम् मनः। दानव्रततपोहोमजपस्वाध्यायसंयमैः श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते। भगवत्युत्तमश्लोके भवतीभिरनुत्तमा भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा। दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च हित्वा वृणीत यूयम् यत्कृष्णाख्यम् पुरुषम् परम्। सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे विरहेण महाभागा महान्मेऽनुग्रहः कृतः। श्रूयताम् प्रियसन्देशो भवतीनाम् सुखावहः। यमादायागतो भद्रा अहम् भर्तूरः स्करः। श्रीभगवानुवाच, भवतीनाम् वियोगो मे न हि सर्वात्मना क्वचित्। यथा भूतानि भूतेषु खम् वायुवग्निर्जलम् मही, तथाहम् च मनः प्राणभूतेन्द्रियगुणाश्रयः। आत्मन्येवात्मनात्मानम् सृजेऽहन्म्यनुपालये आत्ममायानुभावेन भूतेन्द्रियगुणात्मना। आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तो गुणान्वयः। सुसुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते। येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थितः तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत। एतदन्तः समाम्नायो योगः साङ्ख्यम् मनीषिणाम्। त्यागस्तपोदमः सत्यम् समुद्रान्ता इवापगाः। यत्त्वहम् भवतीनाम् वै दूरे वर्ते प्रियो दृशाम् मनसः सन्निकर्षार्थम् मदनुध्यानकाम्यया। यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते स्त्रीणाम् च न तथा चेतः सन्निकृष्टे क्षिगोचरे। मय्यावेश्य मनः कृत्स्नम् विमुक्ताशेषवृत्ति यत् अनुस्मरन्त्यो माम् नित्यमचिरान्मामुपैष्यथ। या मया क्रीडता रात्र्याम् वनेऽस्मिन् व्रज आस्थिताः अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया। श्रीशुक उवाच, एवम् प्रियतमादिष्टमाकर्ण्य व्रजयोषितः ता ऊचुरुद्धवम् प्रीतास्तत्सन्देशागतस्मृतीः। गोप्य ऊचुः, दिष्ट्या हितो हतः कंसो यदूनाम् सानुगोघकृत्। दिष्ट्याप्तैर्लब्ध सर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना कश्चिद्गदाग्रज सौम्य करोति पुरयोषिताम् प्रीतिम् नः स्निग्धसव्रीड हासोदारे क्षणार्चितः। कथम् रतिविशेषज्ञः प्रियश्च वरयोषिताम् नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः। अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् गोष्ठीमध्ये पुरस्त्रीणाम् ग्राम्या स्वैरकथान्तरे। ता किम् निशा स्मरति या सुतदा प्रियाभिर्वृन्दावने कुमुदकुन्द शशाङ्करम्ये रेमे क्वणच्चरणनु पुररासगोष्ठ्या मस्माभिरीडितमनोज्ञकथः कदाचित्। अप्येष्यति हदाशारस्तप्ता स्वकृतया शुचा सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः। कस्मात् कृष्ण इहायाति प्राप्तराज्यो हताहितः नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः। किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः। परम् सौख्यम् हि नैराश्यम् स्वैरिण्यप्याह पिङ्गला तज्जानतीनाम् नः कृष्णे तथाप्याशा दुरत्यया। क उत्सहेत सन्त्यक्तुमुत्तमश्लोकसंविदम् अनिच्छतोऽपि यस्य श्रीरङ्गान्नच्यवते क्वचित्। सरिच्छैलवनोद्देशा गावो वेणुरवा इमे सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो। पुनः पुनः स्मारयन्ति नन्दगोपसुतम् बत श्रीनिकेतैस्तत्पदकैर्विस्मर्तुम् नैव शक्नुमः। गद्या ललितयोदारहासलीलावलोकनैः माध्व्या गिरा हृतधियः कथम् तम् विस्मरामहे। हे नाथ हे रमानाथ व्रजनाथार्तिनाशन मग्नमुद्धर गोविन्द गोकुलम् व्रजिनार्णवात्। श्रीशुक उवाच, ततस्ता कृष्णसन्देशैर्व्यपेतविरहज्वराः उद्धवम् पूजयाञ्चक्रुर्ज्ञात्वात्मानमथोक्षजम्। उवास गतचिन्मासान् गोपीनाम् विनुदञ्छुचः कृष्णलीलाकथां गायन् रमयामास गोकुलम्। यावन्त्यः निनन्दस्य व्रजे वात्सीत् स उद्धवः, व्रजौकसां क्षणप्रायाणि आसन् कृष्णस्य वार्तया। सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान्, कृष्णम् संस्मारयन् रेमे हरिदासो व्रजौकसाम्। दृष्ट्वैव मादिगोपीनाम् कृष्णावेशात्मविक्लवम्, उद्धवः परमप्रीतस्ता नमस्यन्निदम् जगौ। एताः परम् तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनिरूढभावाः। वाञ्छन्ति यद्भवभियो मुनयो वयम् च, किम् ब्रह्मजन्मभिरनन्तकथारसस्य। क्वेमास्त्रियो वनचरीर्व्यभिचारदुष्टाः, कृष्णे क्वचैष परमात्मनिरूढभावः। नन्वीश्वरोऽनुभजतो विदुषोऽपि साक्षात्, श्रेयस्तनोत्यगदराज इवोपयुक्तः। नायम् श्रियोऽङ्गौ नितान्तरते प्रसादः, स्वर्योषिताम् नलिनगन्धरुचाम् कुतोऽन्याः। रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ, लब्धाशिषाम् य उदगाद् व्रजवल्लवीनाम्। आसामहो चरणरेणुजुषामहम् स्याम्, वृन्दावने किमपि गुल्मलतौषधीनाम्। यादुस्त्यजम् स्वजनमार्यपथम् च हित्वा, भेजुर्मुकुन्दपदवीम् श्रुतिभिर्विमृग्याम्। यावै श्रियार्चितमजादिभिराप्तकामैर्योगेश्वरैरपि यदात्मनिरासगोष्ठ्याम्, कृष्णस्य तद्भगवतश्चरणारविन्दम् न्यस्तम् स्तने सुविजहोपरिरभ्यतापम्। वन्दे नन्दव्रजस्त्रीणाम् पादरेणुमभीक्ष्णसः, यासाम् हरिकथोद्गीतम् पुनातिभुवनत्रयम्। श्रीशुक उवाच, अथ गोपीरनुज्ञाप्य यशोदाम् नन्दमेव च, गोपानामन्त्र्यदासार्हो यास्यन्नारुरुहे रथम्। तम् निर्गतम् समासाद्य नानोपायनपाणयः, नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः। मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रयाः, वाचोऽभिधायिनीर्नाम्नाम् कायस्तत्प्रह्वणादिषु। कर्मभिर्भ्राम्यमाणानाम् यत्र क्वापि ईश्वरेच्छया, मङ्गलाचरितैर्दानैरतिर्नः कृष्ण ईश्वरे। एवम् सभाजितो गोपैः कृष्णभक्त्या नराधिप, उद्धवः पुनरागच्छन् मथुराम् कृष्णपालिताम्। कृष्णाय प्रणिपत्याः भक्त्युद्रेकम् व्रजौकसाम्, वसुदेवाय रामाय राज्ञे चोपाय नान्यदात्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने सप्तचत्वारिंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।